इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य अष्टमे नवमे च दिनांके रूसदेशस्य यात्रां विधास्यति। विदेशमन्त्रालयेन निगदितं यत् रूसदेशस्य राष्ट्रपतेः व्लादिमीर पुतिनस्य निमन्त्रणे श्रीमोदी मॉस्को नगरे द्वाविंशतितमे भारत रूस देशयोः वार्षिक शिखर सम्मेलने सम्मिलितो भविष्यति। उभौ नेतारौ पारस्परिक कल्याणस्य समकालिक वैश्विक प्रसंगेषु च चर्चां विधास्यतः। प्रधानमन्त्री ऑस्ट्रियां प्रत्यपि गमिष्यति। नीत्यायोगेन ह्यः पञ्चशतं महत्वाकांक्षिणां मण्डलानां अथ च द्वादशाधिकैकशतं जनपदानां च द्वादश प्रमुखेभ्यः सामाजिक क्षेत्रेभ्यः एकं राष्ट्रव्यापी सम्पूर्णताभियानं प्रचालितम्। त्रिमासात्मके एतस्मिन् अभियाने स्वास्थ्य पोषण कृषि सामाजिक विकास शिक्षा समेत्य अनेकेभ्यः सम्बद्धेभ्यः क्षेत्रेभ्यः ध्यानं प्रदास्यते। सितम्बर मासं यावत् प्रचल्यमाणे एतस्मिन् अभियाने चितैः प्रतिनिधिभिः सह जनपदस्तरीयाधिकारिणः नाटक स्वास्थ्य शिविर प्रदर्शन स्फोरक पत्र निर्माण कविता स्पर्धाः समेत्य अनेकेषां कार्यक्रमाणां आयोजनं करिष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् आतंकवादः केनापि रूपेण उत वा आतंकवादस्य कथमपि प्रकटीकरणं न्यायं समुचितं वा अस्ति इति अनुमोदनं कर्तुं न शक्यते। असौ अवदत् यत् अन्ताराष्ट्रिय समुदायेन ते देशाः ये आतंकवादिनां कृते आश्रयं ददति आतंकिभ्यः सुरक्षित स्थानानि प्रदातुम् आतंकवादस्य अनुमोदनं च कुर्वन्ति तेषां देशानां पृथक्करणपूर्वकं मुखाच्छादकम् अपाकरणीयम्। प्रधानमन्त्रिणः एषा टिप्पणी विदेशमन्त्रिणा डॉ एस जयशंकरेण कृता। विदेशमन्त्री सम्प्रति कजाकिस्तानस्य आस्ताना नगरे आयोज्यमाने शंघाई सहयोग शिखर सम्मेलने परिचर्चावसरे भाषते स्म। विदेशमन्त्रिणा अत्र सम्मेलने चीनदेशस्य विदेशमन्त्रिणा वांग यी इत्यमुना सहापि मेलनं कृतम्। अस्मिन् मेलने उभयोः देशयोः सीमवर्ती क्षेत्राणां विवादस्य शीघ्र समाधान विषयेऽपि मन्त्रणा जाता। उभावपि पक्षौ राजनैतिक माध्यमेन सैन्य माध्यमेन च विवाद समाधानार्थं सहमतौ जातौ। झारखण्ड मुक्ति मोर्चायाः कार्यकारी अध्यक्षः हेमन्त सोरेनः ह्यः झारखण्डस्य मुख्यमन्त्रित्वेन शपथं स्वीकृतवान्। राज्यपालेन सीपी राधाकृष्णवर्येण राजभवने तस्मै पदगोपनीयतायाः शपथवचनं कारितम्। अवधेयमस्ति यत् हेमन्त सोरेनः तृतीयवारं मुख्यमन्त्रीपदम् आरोहति। भारतीय क्रिकेट दलं ह्यः प्रातः नवदिल्लीं सम्प्राप्तम्। भव्यं स्वागतमपि तत्र जातम्। भारतीय पुरुष क्रिकेट दलं बार्बाडोस नगरात् स्वदेशं प्रत्यागतवत्। अपि च विश्वविजयी भूय दलस्य पुनरागमनम् अत्र भव्यं जातम्। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नवदिल्ल्यां स्वनिवासस्थाने विश्वचषक विजेत्रा भारतीय पुरुष क्रिकेट दलेन सह मिलितवान्। तदनन्तरं दलं पथप्रदर्शनार्थं मुम्बईनगरस्य वानखेड़े क्रीडांगणं प्रति निर्गतम्। दलनायकः रोहित शर्मा प्रशंसकानां कृते उत्सवे सम्मिलितुं हृदयहारी आह्वानं कृतवान्। अवधेयं वर्तते यत् तेषां क्रीडकानां भारतं पुनरागमनं झंझावातेन विलम्बितं चेदपि सर्वे प्रशंसकाः स्वदलस्य प्रतीक्षां कृतवन्तः।